सर्वेभ्यः अद्य तत्पुरुषसमासस्य षष्ठे पाठे द्विगुसमासस्य अध्ययनम् अनुवर्तयामः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मित्रयम् नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम. दिक्संख्ये संज्ञायामेव इति नियमार्थं सूत्रं पूर्वेषु कामशमी तेन इहन उत्तरा वृक्षाः पञ्चब्राह्मणाः तद्धितार्थोत्तरपरसमाहारे च तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्सङ्ख्ये प्राग्वत् पूर्वस्यां शालायां भवः पूर्वाशाला इति समासे जाते सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः. दिक्पूर्वपदारसंज्ञायां न्यः अस्माद्भवाद्यर्थे न्यः स्यात् असंज्ञायां तद्धितेष्व चाम् आदेः नीतीनिति च तद्धितेषु अचाम् आदेरसः वृद्धिः स्यात् यस्येति च पौर्वशालः पञ्चगावः धनं यस्य इति त्रिपदे बहुव्रीहौ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् घोरतद्धितलुकि गोन्तात् तत्पुरुषात् टच् स्यात् समासान्तः न तु तद्धितलुकि पञ्चगवधनः तत्पुरुषः समानाधिकरणः कर्मधारयः सङ्ख्यापूर्वो द्विगुः. तद्धितार्थ इत्यत्र उक्तः त्रिविधः सङ्ख्यापूर्वः द्विगुसंज्ञः स्यात्. एतावत्पर्यन्तम् अधीतम् अस्माभिः दिग्वाचकानां शब्दानां सङ्ख्यावाचकानां च शब्दानां समासः कथं भवति इति अधीयमानमस्ति. तत्र सूत्रद्वयमस्ति समासविधायकं दिक्सङ्ख्ये संज्ञायाम् इति एकं सूत्रं तद्धितार्थोत्तरपदसमाहारे च इति अपरं सूत्रम्. उभाभ्यामपि सूत्राभ्यां दिग्वाचकानां सङ्ख्यावाचकानां च समानाधिकरणेन च समानाधिकरणेन सुबन्तेन सह समासः विधीयते. दिक्सङ्ख्ये संज्ञायाम् इत्यनेन संज्ञायां विधीयते. द्वितीयेन सूत्रेण तद्धितार्थे उत्तरपदे समाहारे च विधीयते. तत्र दिग्वाचकानां संज्ञायां समासः भवति, तद्धितार्थे उत्तरपदे भवति, समाहारे नास्ति अनभिधानात् अर्थात् प्रयोगः नास्ति इत्यतः दिग्वाचकानां समाहारः नास्ति. सङ्ख्यावाचकानां तु चतुष्वपि अर्थेषु भवति, संज्ञायां भवति, तद्धितार्थे उत्तरपदे समाहारे च भवति. इदानीम् एतेषु सङ्ख्यापूर्वो द्विगुः इति सूत्रेण तद्धितार्थे उत्तरपदे समाहारे सङ्ख्यापूर्वकत्वं यत्र अस्ति तेन सूत्रेण समासे विहिते सङ्ख्यापूर्वः अर्थात् सङ्ख्यायाः तद्धितार्थे उत्तरपदे समाहारे च यः समासः सः द्विगुसमासः इति कथ्यते सङ्ख्यापूर्वो द्विगुः इति सूत्रेण. अन्ये सर्वेपि एते समासाः अर्थात् दिग्वाचकानां संज्ञायां तद्धितार्थे उत्तरपदे वा यः समासः, एवमेव सङ्ख्यावाचकानां संज्ञायां यः समासः सः कर्मधारयसमासः, तत्पुरुषः समानाधिकरणः कर्मधारयः. तत्पुरुषसमासे यत्र पूर्वोत्तरपदयोः समानाधिकरण्यं भवति सः समासः कर्मधारयः. अतः एते समासाः कर्मधारयसमासाः, एते च द्विगुसमासाः इति विवेकः. तत्र प्रत्येकम् उदाहरणमपि दृष्टम्. पूर्वा इषु कामशमी, पूर्वेषु कामशमी इति देशविशेषस्य नाम संज्ञा. पूर्वा इति दिग्वाचकस्य संज्ञायां कर्मधारयसमासः. पौर्वशालः, पूर्वस्यां शालायां भवः इत्यत्र पूर्वा इति दिग्वाचकस्य तद्धितार्थे तत्र भवः भवार्थे तद्धितप्रत्ययः ञप्रत्ययः भवति, अतः तद्धितार्थं विषयीकृत्य पूर्वाशाला एतयोः कर्मधारयसमासः भवति तद्धितार्थोत्तरपदसमाहारे च इति सूत्रेण। एवमेव उत्तरपदे परतः पूर्वशाला प्रियः, पूर्वाशाला प्रिया यस्य सः इति बहुव्रीहिसमासे कृते प्रिया इत्यस्मिन् उत्तरपदे परे पूर्व इति दिग्वाचकस्य शालाशब्देन समासः भवति, सोऽपि कर्मधारयसमासः। संख्यावाचकस्य संज्ञायाम् उदाहरणं भवति सप्तर्षयः, सप्त ऋषयः, तत्र कश्यपः अत्रिः इत्यादीनां सप्तानां ऋषीणां संज्ञा भवति इत्यतः दिक्संख्येसंज्ञायाम् इत्यनेन कर्मधारयसमासः भवति। तद्धितार्थे द्विगोः उदाहरणं भवति षाण्मातुरः, षण्णां मातॄणाम् अपत्यं, तत्र अपत्यार्थे तद्धितप्रत्ययः भवति इति ज्ञात्वा षट् मातृ एतयोः शब्दयोः षट् इति संख्यावाचकस्य मातृशब्देन सह द्विगुसमासः भवति। उत्तरपदे परतः पञ्चगवधनः इति उदाहरणं, पञ्चगावः धनं यस्य इति बहुव्रीहौ, धन इति उत्तरपदं, तस्मिन् परे पञ्च इति संख्यावाचकस्य गोशब्देन सह तत्पुरुषसमासः भवति, सः द्विगुसमासः। एवमेव समाहारे पञ्चानां गवां समाहारः पञ्चगवम्, संख्यावाचकस्य पञ्चन् इत्यस्य गोशब्देन सह समाहारार्थे द्विगुसमासः भवति। एतावत् अवगतं, केऽपि प्रश्नाः सन्ति वा? तर्हि एतेषां शब्दानां प्रक्रियाः कथं भवन्ति इति जानीमः। दिग्वाचकानाम् उदाहरणानि पूर्वेषु कामशमी, संज्ञायां कर्मधारयसमासः, सूत्रमस्ति दिक्संख्ये संज्ञायामिति, पौर्वशालः इत्यत्र तद्धितार्थे कर्मधारयसमासः, तद्धितार्थोत्तरपदसमाहारे च इति, समासे कृते तद्धितप्रत्ययः अपि कर्तव्यः, केवलं समासेन पदं न सिद्ध्यति। पूर्वशाला इति समासः, ततः तद्धितप्रत्यये कृते पौर्वशालः। पूर्वशालाप्रियः इत्यत्र आदौ बहुव्रीहिः, ततः उत्तरपदे परे कर्मधारयसमासः, तद्धितार्थोत्तरपदसमाहारे च इति सूत्रेण। संख्यावाचकानां तु सप्तर्षयः इत्यत्र संज्ञायां कर्मधारयसमासः, दिक्संख्ये संज्ञायाम् इति सूत्रेण। षाण्मातुरः इत्यत्र तद्धितार्थे द्विगुसमासः, तद्धितार्थोत्तरपदसमाहारे च इति, तत्र तद्धितप्रत्ययः अपि भवति। पञ्चगवधनः इत्यत्र बहुव्रीहिसमासः, ततः उत्तरपदे द्विगुसमासः, तद्धितार्थोत्तरपदसमाहारे च इति सूत्रेण। पञ्चगवम् इत्यत्र समाहारे द्विगुसमासः, तेनैव सूत्रेण। एतेषां प्रक्रियाः कथं भवन्ति? पूर्वेषु कामशमी, कोऽपि वक्तुमिच्छति? प्रयत्नं कुर्वन्ति वा? पूर्वमेव दृष्टं, नूतनं नास्ति इदं, गतवर्गे वा प्रगतवर्गे वा उक्तमेव। कोऽपि
पूर्वा इषुका, पूर्वा सु इषुकामशमी सु सुपोधातु प्रातिपदिकयोः इत्यनेन सॉरी
समासः केन सूत्रेण पूर्वासु इषुकामसमी शमी सु दिक्संख्ये संज्ञायाम् इति समासः
अत्र सुपोधातु प्रातिपदिकयोः जनेन सुब्लुक् देन् सो पूर्वा इषुकामशमी देन् सर्वनाम्नो वृत्तिमात्रे पूर्वद्भावः पूर्व इषुकामशमी देन् आद्गुणः पूर्वेषुकामशमी देन् सौजस् अमौक्षस् सुप्रत्यय देन् हल्म्याभ्यो दीर्घा हल्म्याभ्यो दीर्घात् सुतीत्यपृक्तं हल् इत्यनेन सुब्लुक् पूर्वेषु कामशमि
पूर्वेषु कामशमि समासः सुब्लुक् पुम्बद्भावः गुणः सुप्रत्ययः तस्य लोपः सम्यक् पूर्वेषु कामशमि इति कर्मधारय समासः अग्रे पूर्वस्यां शालायां भवः पौर्वशालः अत्र वृत्तिद्वयमस्ति समासः ततः तद्धितः एनिबडि वाण्ट्स् टु ट्रै दोषः भवति चेत् चिन्ता नास्ति प्रयत्नो विधेयः Masangi, you want to try again?
Yes, I'll go again. So, Purva, me, Shala, me. By Saddhitartha Uttarapada Samahareta. Saddhitarthe Samahareta. So, then Shukodhatu Pradipadika.
Purva, Su, Shala, Su. अत्र अग्रे सप्तमी अस्ति किन्तु पूर्वासु शालासु इति समासं कृत्वा अपि शक्यते बोथ ऑफ देम आर करेक्ट हां
तेन सुपोधातु प्रातिपदिकयोः इति सुब्लुक् सुपूर्वाशाला तेन सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः पूर्वशाला तेन दिक् पूर्वपदादसंज्ञायां न्यः पूर्वशाला
तत्र प्रत्ययः अपि लैक् समा प्लस् तद्धित प्रत्ययास् आर् आल्सो आल्वेज् एडेड् टु सुबन्तस् मेन्शन् इट् लास्ट् टैम् सो तद्धितः अपि पदविधिः सो यु हर् टु फस्ट् मेक् इट् अ सुबन्त एण्ड् देन् एड् द तद्धित इवन् इन् से दशरथस्य अपत्यं पुमान् वि एडेड् टु तस्य अपत्यं दशरथ नस् अण्ड अपत्यार्थ प्रत्यय द प्रत्यय इस् आफ् कोर्स् डिलीटेड् बै सुपोधातु प्रातिपदिकयोः सो बिकास् द तद्धितान्त इस् अ प्रातिपदिक कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति प्रातिपदिकत्वात् सुपोधातु प्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लुक् भवति किन्तु सुबन्तादेव तद्धितोत्पत्तिः इति सिद्धान्तः पूर्वशाला ण्य इस् द प्रत्यय ण्य प्रत्यये ण्यकारस्य इत्संज्ञा लोपः सो यु हाव् अ
देन् तद्धिते स्वसामादेः पौर्वशाला
आदिवृद्धिः So Paurva Pu becomes Au. Paurva Shala A.
And Yasye teacher Purva Shal A.
Akarasya Lopaha. Tadhite pare Ikara Akara Yoho Lopaha Bhavati Yasye teacher. So Paurva Shal A.
Then Sup Pauja Purva Shal Su.
Sasajushoruhu kharvasanayor visarjaniyaha paurvashalaha. Right? So we do the samasa. So the actual prakriya is always we do the samasa, make it a subanta and then bring in the tadhita. Because tadhita is also a padavritti. So subantat tadhitotpatti. And since the Tadhita Samudaya, like in Samasas, the Tadhita is a Pratipadika, Pratipadika Avayavasya Supratyayasya Lopaha Bhavati.
Can I ask one question?
Yeah.
Before you add the Tadhita Pratyaya, the only step that happens basically is the Pumbad Bhava for the Purva, apart from the Supodhatu Pratipadika. So can't you just retain the two the pratyaya ni there and then delete it just once and for all after you add the tadhita?
No, see, I mean, this pratyaya is not on the pada. Even if you retain the pratyaya for the pada, you would add another supratyaya, right? Because you need that pada. The tadhita is on the pada. So purvashalayam bhavaha. I mean, even though using purvashalayam is not correct, you have to have that subanta. To make that samudaya subanta, you anyway have to add the supratyaya. Even if you retain the original supratyaya, this is not a subanta. Because you are not adding this pratyaya to this samudaya.
Okay.
Here, samasa is a separate vritti, tadhita is a separate vritti. In both of them, we have the supodhatu pratipadika yoho. In this case, they are linked, as in you cannot use the samasa without doing the tadhita. That's all. Okay. So, paurvashalaha ityatra digvachakasya tadhitarthe karmadharaya samasaha. Next. Purvashala priya yasya saha. Purvashala priyaha. Digvachakasya uttarapade pare karmadharaya samasaha. Anybody else wants to try? This is very easy. I mean, there is nothing, no extra prakriya in this. Yeah, you can try that thing. If nobody else wants to.
By the same sutra tadhitarthottara pada samahari.
That is bahuvrihi. First we do bahuvrihi. Bahuvrihi is by aneka manya padarthe. So we study this sutra later. So anya padarthe anekam subantam samasyate. So purvasu, shalasu, priyasu, ityatra, anekamanya padarthe ityanena bahuvrihi samasaha.
In supodhatu pratipadika yoho subluka, purva, shala, priya. Then sarvanamnu vritti matre pumbad bhavaha, purva, shala, priya. Then dik purva pada dasamnyayam nyaha.
That is only for tadhitartha. Actually, after this, you have to do the dvigu samasa.
Yes.
This is where we are doing the ಉತ್ತರಪದ ಸಮಾಹಾರ ಚ. ಒನ್ಸ್ ಯು ಹ್ಯಾವ್ ದ ಪ್ರಿಯಾ ಆಸ್ ದ ಉತ್ತರಪದ, ದೆನ್ ವಿ ಡೂ ದಿಸ್ ಒನ್. ಯು ಕ್ಯಾನ್ ಡೂ ದ ಪುಂವದ್ಭಾವ ಈದರ್ ಆಫ್ಟರ್ ದಟ್ ಸಮಾಸ ಆರ್ ಬಿಫೋರ್ ದಟ್ ಸಮಾಸ, ಈದರ್ ಒನ್ ಇಸ್ ಓಕೆ. ಬಟ್ ದೆನ್ ಯು ಹ್ಯಾವ್ ದಿಸ್, ದಟ್ ಇಸ್ ಪೂರ್ವಾ ಶಾಲಾ ಪ್ರಿಯಾ. ಆಸ್ ಸೂನ್ ಆಸ್ ವಿ ಡೂ ದ ಬಹುವ್ರೀಹಿ ಸಮಾಸ ಯು ಹ್ಯಾವ್ ದ ಉತ್ತರ ಪದ. ಸೊ ಉತ್ತರ ಪದೇ ಪರೇ ಪೂರ್ವಾ ಶಾಲಾ ಏತಯೋಃ ಸಮಾಸ. We can do tadhitarthottara pada samaharecha and then do the pumvadbhava. Purvashala priya. Then we have a hraswa. Is three gostriya pada sarjanasya?
No, we are not yet.
Not, okay. So I think it comes today. So there is a hraswa for the priya. Because it is referring to yasya saha. So the priya is an upasarjana. We'll see that right now. I think it is in today's class or tomorrow's class. So hraswaha bhavati. So you have purvashala priya and then supratyayaha sasajashoruhu pravasanayor visarjaniyaha purvashala priyaha iti bhavati. Okay. So actually in purvashala priya, you don't see any purpose for doing the ದ್ವಿಗು ಸಮಾಸ. ದ್ವಿಗು ಸಮಾಸ ಸಾರಿ ದ ಕರ್ಮಧಾರಯ ಸಮಾಸ, ದ ಸಮಾಸ ಬಿಟ್ವೀನ್ ಪೂರ್ವ ಅಂಡ್ ಶಾಲಾ ಡಸ್ ನಾಟ್ ಕ್ಯಾರಿ ಎನಿ ಪರ್ಪಸ್ ಇನ್ ದಿಸ್ ಪರ್ಟಿಕ್ಯುಲರ್ ಕಾಂಪೌಂಡ್. ವೈ ಡೂ ವಿ ಡೂ ದಟ್ ಈಸ್ ಲೈಕ್ ವಿ ಸಾ ಇನ್ ಪಂಚಗವಧನ. ಸಿ ದ ಹೋಲ್ ಥಿಂಗ್ ಇಸ್ ಅ ಸಮಾಸ ಆಲ್ರೆಡಿ ವೈ ಬಹುವ್ರೀಹಿ. ವೆನ್ ಯು ಆಲ್ರೆಡಿ ಹ್ಯಾವ್ ಅ ಸಮಾಸ, ವೈ ಡೂ ಯು ನೀಡ್ ಟು ಡೂ ಸಮಾಸ ಫಾರ್ ದ ಫಸ್ಟ್ ಟೂ ವರ್ಡ್ಸ್ ಅಗೇನ್? What is the purpose? The purpose is served when there is some samasanta which is being added to this middle word. I think we saw panchagavadhanaha last time. So if we go there, it will be clear. Why we do this second samasa within the bahuvrihi samasa is if there is something special happening to that middle word when it is a samasa. Right? So when we do an internal samasa, you can add a samasanta in between. That is, if the whole word is the samasa, you cannot add a samasanta because this word is not at the end. But when we do an internal samasa, if this word, the middle word, has the possibility of getting a samasanta, it gets a samasanta. That is the purpose of having a internal samasa after doing the bahuvrihi. Okay. So purvashala priya is just given as an example. There should be some other examples we will see later which make a difference. Okay. So next, that is the digvachakanam samasaha. Irani sankhyavachakanam samasaha. Sapta rishayaha. Atra katham bhavati prakriya. All this is what we have already studied. Sapta rishayaha. What is the prakriya? Anybody? ನೀರಜವಾಗಿನಿ
ಭಗಿನಿ, ದಿಸ್ ಕ್ಲಾಸ್ ಹಸ್ ಬಿನ್ ರಿಯಲಿ ರಿಯಲಿ, ಐ ಸ್ಟಿಲ್ ಹ್ಯಾವ್ ಟು ಡೈಜೆಸ್ಟ್ ಅ ಲಾಟ್.
ದಿಸ್ ಇಸ್ ದ ಪ್ರೀವಿಯಸ್ ವನ್.
ನೋ, ಐ ವೆಂಟ್ ಹಾಫ್ ದ ವೇ ಅಂಡ್ ಐ ಕುಡನ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಎನಿಥಿಂಗ್ ಆಫ್ಟರ್ ದಟ್. ಐ ಕರ್ಸ್ಡ್ ಮೈಸೆಲ್ಫ್ ಫಾರ್ ಮಿಸ್ಸಿಂಗ್ ದ ಕ್ಲಾಸ್ ಅಂಡ್ ನೌ ಐ ಡೋಂಟ್ ನೋ ಹೌ ಟು ಕಾಂಪೆನ್ಸೇಟ್ ಆಲ್ಸೋ.
Doing again today. You can ask it. Go through it again, and if you don't understand, you can always ask. I'll explain it.
So saptan.
Saptan
su rishay.
bahuvachana. So saptan jas.
Okay, saptan jas. Rishi jas.
Saptan jas rishi jas. Sutra samasa.
Supo dhatu pratipadikyo iti subluk.
Before that, what is the sutra which is the samasa?
Tadhitarthottara pada samaharecha.
There is no tadhitartha here, right? It is just sapta rishayaha. There is no
tadhitartha. Okay, so it's sankhyavachakam, sankhyavachaka.
Diksankhe samgyayam ityanena.
Samgyayam. Diksankhe samgyayam.
So saptanjas rishi jas. Next.
Saptanjas rishi jas. Okay. Then supo dhatu pratipadikayoho subluk. Is it right?
Correct, correct. So what do we get?
Saptan and rishi.
Saptan rishi.
And next is nalopaha. I forgot the sutram for that. Nalopo
pratipadikantasya.
Pratipadikantasya. Sattarishi. Sattarishayaha. After that, how rishayaha comes, I don't know.
Rishayaha, what do we do? What is the sandhi which happens here?
Dvigu, oh, sandhi is it? Okay.
A plus R.
Right. Saptar Sheha, correct. Oh God. Bagini, I need help.
Guna sandhi. A plus R is R. Saptar Sheha. By Ad Gunaha. So we have the Guna, you get Saptarshi as the Pratipadika. So for Saptarshi, we add the Jas Pratyaya. Because it is Bahuvachana, so au Jas. So Saptarshi Asta.
Okay.
So next, this it is like Hari plus As. Harihi Hari Harayaha. We have Saptarshihi, Saptarshi, Saptarshayaha. So what happens here is there is a guna. Ikarasya jasicha iti gunaha. It becomes saptarshe as. And then a plus a is aye. Echo ayavayavaha. Ityanena ayadehse saptarshayas. Then the usual. Sasajushoruhu kharavasanayor visarjaniyaha. We have saptarshayaha.
Saptarshayaha.
Samasa is only till saptarshi. That is the pratipadika. Then this is just deriving saptarshayaha. There is also one more form because there is an optional prakriti bhava which is given. Riti pare akaha pragvat. So when followed by a rikara, there is an optional prakriti bhava for the swara. Okay, most of the swaras, a, e, u, r. So if there is prakriti bhava, there is no guna. Instead of ar, we just retain it as sapta rishi. So both forms are correct. Saptarshayaha. Or sapta rishayaha. Both of them are samasa. Okay? I mean, it is just one pada, but in one case there is a prakriti bhava and in the other case there is a sandhi. That's all. Okay? So sapta rishayaha diksankhe samyayam ityanena karmadharaya samasa. Next we have shanmaturaha shannam matrinam apatyam, the son of six mothers. So atra samasah asti dvigu samasah tena saha tadhitah api bhavati. So trakim bhavati shash iti sankhyavachakam. Shat shabdasya pratipadikam bhavati shash. So shash jas matra jas. Shash iti sankhyavachakasya matra shabdena saha tadhitarthe vivakshite samasah bhavati. So knowing that we are going to add a tadhita pratyaya, initially we do a dvigu samasa by tadhitarthottarapada samaharecha. So shash jas matra jas. So tatra supodhatu pratipadikayoho ityanena subluk. You have shash matra. The shakara becomes shad matra. झलां जशोन्ते इत्यनेन पदान्ते झलां जष्ट्वं षकारस्य जष्ट्वेन डकारः बिकॉज ऑफ मूर्धा ऋटु रषाणां मूर्धा स्थानसाम्यात् षकारस्य डकारः भवति सो यू हैव षड् मात्र देन यरोनुनासिको असिके अनुनासिको वा यस सो वी हैव द अनुनासिक षण् मात्र ओके यरोनुनासिके अनुनासिको वा इति अनुनासिकः षण् मात्र इज द प्रातिपदिक You have to make it a subanta. We add a pratyaya, which is the am, because we are going to add an apatyarthaka taddhita later. Okay. So you have shand matru as the pratipadika. This is the samasa part, the dvigu samasa. Knowing that there is a taddhita pratyaya, we are adding, you are making a dvigu samasa by taddhitarthottara para samaharecha. Then we have to add the taddhita. So there is shand matru am. ओके आम प्रत्ययः तत्र एकं सूत्रमस्ति मातुरुत् संख्या सं भद्रपूर्वायाः दिस इज अ तद्धित सूत्र अनेन किमुच्यते मातुः मातृशब्दस्य उत् उत् इत्युक्ते उकारः आदेशः भवति संख्या सं भद्रपूर्वायाः यत्र मातृशब्दात् पूर्वं संख्यावाचकः शब्दः सम् शब्दः भद्रशब्दो वा अस्ति तत्र अण् इति प्रत्ययः भवति अण् प्रत्ययः अपत्यार्थे बहु प्रसिद्धः प्रत्ययः कौरवः पाण्डवः सर्वत्र यः प्रत्ययः अस्ति कुरोः अपत्यं कौरवः रघोः अपत्यं राघवः पाण्डोः अपत्यं पाण्डवः सर्वत्रापि अण् इति प्रत्ययः अपत्यार्थकप्रत्ययः मातृ इत्यस्य उकारादेशः भवति उकारः ऋकारस्य स्थाने उकारः उरण्ड्रपरः इत्यनेन उर् इति भवति अतः षण् मातृ इत्यस्य स्थाने षण् मातुर् इति भवति अण् प्रत्ययः कार्यद्वयमपि अनेनैव सूत्रेण क्रियते तद्धितसूत्रमस्ति तेन मातृशब्दस्य उकारादेशः अपत्यार्थे अण् प्रत्ययः उभयं विधीयते सो वी हैड षण् मातृ आम सो षण् मातुर् आम अण् अण् प्रत्ययः मातृशब्दस्य उकारादेशः उभयं भवति ततः अण् इत्यत्र णकारस्य हलन्त्यम् इत्यनेन इत्सम्या तस्य लोपः सुपोधातुप्रातिपदिकयोः इत्यनेन आम प्रत्ययस्य लोपः सो यु हैव षण् मातुर् अ अण् प्रत्ययः णित् अस्ति अतः तद्धिते श्वचामादेः इत्यनेन आदिवृद्धिः अकारस्य वृद्धिः आकारः षाण् मातुर् अ सुप्रत्ययः ऋत्वं विसर्गः षाण् मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः इति अमरकोशे कार्तिकेयस्य नाम कृत्तिकाभिः षड्भिः कृत्तिकाभिः पालितः इत्यतः षण्णां मातॄणाम् अपत्यं सः षाण्मातुरः तत्र आदौ षट् शब्दस्य मातृशब्देन द्विगुसमासः ततः अण् इति तद्धितप्रत्ययः षाण्मातुरः इति रूपम् अयं द्विगुसमासः तद्धितार्थद्विगोः उदाहरणं भवति षाण्मातुरः एवमेव द्वैमातुरः इत्यपि अस्ति द्वयोः मात्रोः अपत्यं द्वैमातुरः विनायकस्य गणपतेः नाम्नसु द्वैमातुरः इति अस्ति कर्णः अपि द्वैमातुरः कृष्णः द्वैमातुरः द्वि तत्र द्विशब्दस्य मातृशब्देन द्विमातृ द्विमातुर् अ इति भवति आदिवृद्धौ द्वैमातुर् अ द्वैमातुर इति रूपम् स्पष्टम् अयं तद्धितार्थद्विगुसमासः अग्रे उत्तरपदद्विगुः पञ्च गावः धनं यस्य सः पञ्चगवधनः अत्र बहुव्रीहिसमासः ततः द्विगुसमासः पञ्चन् जस् गो जस् धन सु पञ्च गावः धनं प పంచ ఇది బహువచనాంతం, గావ ఇది బహువచనాంతం, ధనం ఇది ఏకవచనాంతం. సో జస్ జస్ సు అనేకమన్య పదార్థే ఇది బహువ్రీహి సమాసః. సుబోధాతు ప్రాతిపదికయోః ఇత్యనేన సుబ్లుక్. అధునా ఉత్తర పదే పరే పంచన్ గో ఏతయోః సమాసః భవతి. తద్ధితార్థోత్తరపర సమాహారే చ ఇత్యనేన సమాసః. సమాసస్య కిం ప్రయోజనం ఇతి చేత్ గోర తద్ధితలుకి ఇతి సమాసాంతః. సమాసాంత ప్రత్యయః కుత్ర భవతి? సమాసస్య అంతే భవతి. యది పంచగో పంచన్ గోధన ఇతి బహువ్రీహి సమాసః ఏవ క్రియతే తత్ర సమాసాంతః న భవతి. కిమర్థం న భవతి? ఏకం గోశబ్దః సమాసస్య అంతే నాస్తి ఇతి ఏకం. ద్వితీయం సహ తత్పురుష సమాసః న. గోరతద్ధితలుకి ఇతి తత్పురుష సమాసే టచ్ ప్రత్యయః విధీయతే, బహువ్రీహి సమాసే న భవతి. కథంచిత్ గోశబ్దః అంతే నాస్తి ఇత్యతః న భవతి. అతః అత్ర పంచన్ గో ఏతయోః ద్వయోః తద్ధితార్థోత్తరపద సమాహారే చ ఇతి సమాసః. తస్య సమాసస్య అంతే. ఇదానీం పంచన్ గో ఇతి ద్విగు సమాసః. ద్విగు సమాసస్య అంతే ఘోరతద్ధితలుకి ఇత్యనేన తస్య సమాసాంతః క్రియతే. పంచన్ గో అ ధన ఏచో అయవాయావః ఓకారస్య అకారే పరే అవాదేశః. పంచన్ గవ ధన నలోపః ప్రాతిపదికాంతస్య ఇత్యనేన నకారస్య లోపే పంచ గవ ధన. సుప్రత్యయః రుత్వం విసర్గః పంచ గవ ధనః. సో మోర్ దాన్ పంచశ పూర్వశాలా ప్రియః, ఇన్ పంచ గవ ధనః దేర్ ఇస్ అ పర్పస్ ఆన్ వై వీఆర్ డూయింగ్ అ ద్విగు సమాస విదిన్. యది సమాసః న క్రియతే తదా పంచ గోధనః ఇత్యేవ రూపం భవతి, పంచ గవధనః ఇతి రూపం న భవతి. తదర్థం పంచన్ గో ఏతయోః ఉత్తరపదే పరే ద్విగు సమాసః క్రియతే. స్పష్టం? అయం ఉత్తరపద ద్విగుః షాణ్మాతురః ఇతి తద్ధితార్థ ద్విగోః ఉదాహరణం, పంచగవధనః ఇతి ఉత్తరపద ద్విగోః ఉదాహరణం. ఇదానీ సమాహార ద్విగుః. సమాహారః ఇత్యుక్తే సమూహః. పంచానాం గవాం సమాహారః, అ గ్రూప్ ఆఫ్ ఫైవ్ కౌస్. తత్ర ద్విగురేకవచనం ఇది సూత్రమస్తి. ద్విగుః ఇది ప్రథమాంతం, ఏకవచనం ఇత్యస్తి. అతిదేశ సూత్రం ఇత్యుచ్యతే ఏకవచనం అతిదిశ్యతే. యద్యపి తత్ర బహవః సంతి, పంచ గావః సంతి, అతః వస్తుతః బహువచనం భవేత్, కింతు ఏకవచనం అత్ర అతిదిశ్యతే. సమాహారగ్రహణం కర్తవ్యం ఇది వార్తికం. కః అర్థః? ద్విగ్వర్థః సమాహారః ఏకవత్ స్యాత్. యత్ర సమాహార ద్విగుః భవతి తత్ర నిత్యం ఏకవచనాంతత్వం భవతి. యతో హి తత్ర వ్యక్తీనాం ప్రాముఖ్యం న సముదాయస్య ప్రాముఖ్యం. సో సముదాయస్య ప్రాధాన్యత్వాత్ సముదాయః ఏకః, అతః ఏకవద్ భవతి. ద్విగ్వర్థః సమాహారః ఏకవత్ స్యాత్, తేన ఏకవచనం భవతి ఇత్యర్థః. స నపుంసకం ఇది అపరం సూత్రమస్తి. సహ ఇది ఏకవచనాంతం, నపుంసకం ఇది ఇదం విధి సూత్రం. నపుంసకలింగం విధీయతే. కస్య సహ? సహ ఇత్యుక్తే కిం? అత్ర ద్వితీయాధ్యాయస్య చతుర్థపాదే సప్తదశం ఇదం సూత్రం. ఏతత్ పూర్వతన సూత్రం పశ్యామః. ప్రథమం సూత్రం ద్విగురేకవచనం ఇది. తదనంతరం ద్వంద్వశ్చ ప్రాణితూర్య సేనాంగానాం ఇత్యనేన ద్వంద్వ సమాసస్య విషయే ఉచ్యతే. సమాహార ద్వంద్వః. అత్ర ద్విగురేకవచనం ఇత్యత్ర సమాహార ద్విగుః. అగ్రే ద్వంద్వశ్చ ప్రాణితూర్య సేనాంగానాం ఇత్యనేన సమాహార ద్వంద్వః. సహ ఇత్యుక్తే ఏతయోః ఉభయోః పరామర్శః. సమాహారే ద్విగుః ద్వంద్వశ్చ నపుంసకం స్యాత్. సమాహార ద్విగోః సమాహార ద్వంద్వస్య చ నపుంసకత్వం భవతి ఇత్యుచ్యతే. పంచానాం గవాం సమాహారః పంచగవం. कथं भवति प्रक्रिया. पञ्चानां गवां समाहारः. अत्र पञ्चन् जस् गो जस् इति प्रथमान्ततया अपि विग्रहः वक्तुं शक्यते. पञ्चन् आम् गो आम् इति षष्ठ्यन्ततया अपि शक्यते. वस्तुतः प्रथमान्तः वक्तव्यः, केचित् तु षष्ठ्यन्तत्वेनापि विग्रहं वदन्ति. कथितार्थोत्तरपदसमाहारे च इत्यनेन समाहारे समासः भवति. सुपोधातुप्रातिपदिकयोः इत्यनेन लुकि पञ्चन् गो इत्यस्ति. इदानीम् अत्रापि गोरतद्भिदलुकि, गोन्तात् तत्पुरुषात् तच् भवति. अत्रापि तच् इति समासान्तः भवति. पञ्चन् गो अ एचो अयवायावः इत्यनेन अवादेशे पञ्चन् गव. नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपे पञ्चगव. इदानीं पञ्चगव इत्यस्ति नपुंसकत्वम् एकवचनान्तत्वम् अस्ति. सनपुंसकम् इत्यनेन नपुंसकत्वं, द्विगुरेकवचनम् इत्यनेन एकवचनत्वम्. अतः पञ्चगव सु एकवचनान्तप्रत्ययः एव क्रियते, सु औजस् इति. नपुंसकत्वात् अतो अम् नपुंसकलिङ्गे सु अम् एतयोः स्थाने अमादेशः भवति. अतः सुप्रत्ययस्य स्थाने अम् इति आदेशः. पञ्चगव अम् अमिपूर्वः इत्यनेन पूर्वरूपे पञ्चगवम् इति रूपम्. कः अर्थः? पञ्चानां गवां समाहारः पञ्चगवम्, अ ग्रूप् आफ् फैव् कौस् इत्यर्थः. स्पष्टं? प्रश्नाः सन्ति वा? षाण्मातुरः पञ्चगवधनः पञ्चगवम् इति द्विगुसमासस्य उदाहरणानि. सद्धितार्थद्विगुः षाण्मातुरः, उत्तरपदद्विगुः पञ्चगवधनः, समाहारद्विगुः पञ्चगवम्. तत्र समाहारद्विगोः लिङ्गं किमुक्तं? सनपुंसकम् इत्यनेन नपुंसकत्वम् उक्तं, किन्तु तत्र वार्तिकद्वयम् अस्ति. वस्तुतः लघुसिद्धान्तकौमुद्यां न दीयते, किन्तु प्रयोगदृष्ट्या मुख्यं वार्तिकद्वयमस्ति. अदन्तोत्तरपदः द्विगुः स्त्रियाम् इष्टः इति वार्तिकमस्ति. यत्र द्विगु समाहारद्विगुसमासे अकारः उत्तरपदः अकारान्तः अस्ति, तत्र समासः स्त्रीलिङ्गे भवति इति उच्यते. समाहारद्विगुः स्त्रीलिङ्गे भवति. बहूनि उदाहरणानि सन्ति. पञ्चवटी, पञ्चानां वटानां समाहारः पञ्चवटी. वस्तुतः तत्र नपुंसकत्वं भवेत्, किन्तु अनेन वार्तिकेन. अदन्तोत्तरपदः द्विगुः, वट इति अदन्तः, उत्तरपदम् अदन्तमस्ति. अतः स्त्रियामिष्टः. स्त्रियां किं भवति? द्विगोः इति सूत्रेण नीप् इति स्त्रीप्रत्ययः भवति. There is a stri pratyaya called neep. Neep ityukte ikaraha. So pancha vata e ityasti. Yasya iti cha ityanena akarasya lope pancha vati iti pratiparikam bhavati. Pancha vati su halya abhyo dirgha chutisya pratyam hal ityanena pratyayasya lope pancha vati. Trayanam lokanam samaharaha triloki. So triloka neep. त्रिलोक ई यस्येति च इति अकारलोपः त्रिलोकी. अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी. सो अष्ट अध्याय, तत्र ङी प्रत्यये अष्टाध्यायी. एवञ्च बहुत्र समाहारद्विगुः स्त्रियां स्त्रीलिङ्गे भवति. पञ्चगवम् इत्यत्र तु अदन्तत्वं नास्ति, पञ्चन् गो इत्यस्ति अतः. किन्तु तत्रापि अपवादाः सन्ति, अतः पुनः वार्तिकमस्ति. पात्राद्यन्तस्य न, पात्रादिः इति कश्चित् गणः, तत्र तस्मिन् गणे ये शब्दाः तेषां स्त्रीत्वं न भवति, अर्थात् नपुंसकत्वमेव भवति. तत्र बहूनि उदाहरणानि सन्ति. పంచపాత్రం, పంచానాం పాత్రాణాం సమాహారః పంచపాత్రం, త్రయాణాం భువనానాం సమాహారః త్రిభువనం, చతుర్ణాం యుగానాం సమాహారః చతుర్యుగం, పంచాంగం, పంచానాం అంగానాం సమాహారః పంచాంగం. సో ఏవం ద్విగు సమాహార ద్విగోః నపుంసకత్వేనాపి ప్రయోగః అస్తి, స్త్రీలింగత్వేనాపి ప్రయోగః అస్తి. ప్రయోగమాశ్రిత్య ఏవ అస్మాభిః జ్ఞాతవ్యం కుత్ర స్త్రీత్వం భవతి కుత్ర నపుంసకత్వం ఇతి. ఇట్ ఇస్ మెయిన్లీ డిపెండెంట్ ఆన్ ద ప్రయోగ. సో వేర్ వి హావ్ ద ప్రయోగ, యది పూర్వతన ప్రయోగ నాస్తి తర్హి స్త్రీలింగే భవేత్ ఇతి నియమః. అస్మాభిః ఇదానీం నూతనతయా కిమపి క్రియతే. దశశ్లోకీ, దశానాం శ్లోకానాం సమాహారః దశశ్లోకీ పంచశ్లోకీ ఇత్యాది. సామాన్యతః స్త్రీలింగే భవతి, అపవాదత్వేన నపుంసకత్వే అపి కదాచిత్ భవతి. అయం ద్విగు సమాసస్య విషయః. అయం పాత్రాదిః ఆకృతిగణః. ఆకృతిగణః ఇత్యుక్తే ఏతాదృశాః ఏ శబ్దాః సంతి తే సర్వే శబ్దాః అత్ర యోజయితుం శక్యాః ఇతి. అతః ప్రయోగం ఆశ్రిత్య నపుంసకత్వం వా స్త్రీత్వం వా ఇతి జ్ఞాతవ్యం. अत्र कश्चित् प्रश्नः त्रयी इति. त्रयी इत्यत्र ङीप् भवति किन्तु तत्र द्विगु समासः नास्ति. त्रय इति तद्धितान्तः शब्दः, तत्र प्रत्ययः अस्ति. त्रिशब्दात् प्रत्ययः सो त्रय इत्येव अस्ति, तस्मात् ङीप् प्रत्ययः भवति. त्रयी इत्यत्र प्रत्ययः अस्ति किन्तु द्विगु समासः नास्ति. సంక్షేపః. ద్విగు సమాసః సద్ధితార్థోత్తరపదసమాహారే చ ఇత్యనేన క్రియతే. తత్ర తత్పురుషః సమానాధికరణః కర్మధారయః సంఖ్యాపూర్వో ద్విగుః ఇది సూత్రద్వయమస్తి. తత్పురుష సమాసే యత్ర యత్ర సమానాధికరణ్యం తత్ర కర్మధారయ సమాసః భవతి. కింతు అనేన సూత్రేణ సద్ధితార్థోత్తరపదసమాహారే చ ఇత్యనేన విహితే సమాసే సంఖ్యాపూర్వ ద్విగు సమాసః భవతి. అతయేవ ద్విగు సమాసః త్రివిధః ఇత్యుచ్యతే. తద్ధితార్థ ద్విగుః ఉత్తరపద ద్విగుః సమాహార ద్విగుః ఇతి. ఉదాహరణాని షాణ్మాతురః పంచగవధనః పంచగవం. ఏతదేవ స్మర్తవ్యం. యు హావ్ టు రిమెంబర్ దీస్ త్రీ ఎగ్జాంపుల్స్ అండ్ దెన్ యు కెన్ ఎక్స్టెండ్, బట్ ద ప్రైమరీ ఎగ్జాంపుల్స్ ఫార్ ద్విగు ఆర్ దీస్ త్రీ. తత్ర తద్ధితార్థ ద్విగౌ ప్రక్రియాయాం పూర్వశాలః ఇత్యత్ర దిక్పూర్వపదాద్ అసంజ్ఞాయాం న్యః ఇత్యనేన న్యప్రత్యయః. తద్ధితేషు అచామాదేః ఇత్యనేన ఆదివృద్ధిః. ఘోరతద్ధితలుకి ఇత్యనేన సమాసాంతః ప్రత్యయః భవతి. సమాహారే సమాసాంతప్రత్యయః భవతి. ద్విగురేకవచనం ఇత్యనేన ఏకవచనం, సనపుంసకం ఇత్యనేన నపుంసకత్వం చ భవతి. జన ప్రశ్నః. సద్ధితార్థోత్తరపద సమాహారే చ కః అర్థః సోదాహరణం వివృణుత. ద్విగు సమాసం సోదాహరణం నిరూపదేత. దేర్ ఇస్ ఎ బిట్ ఆఫ్ అ డిఫరెన్స్. యది సూత్రస్య విషయే పృచ్యతే తర్హి దిగ్వాచకానాం సమాసః అపి వక్తవ్యః, సంఖ్యావాచకానాం సమాసః అపి వక్తవ్యః. యది ద్విగు సమాసః ఇతి పృచ్యతే తర్హి సంఖ్యావాచకానాం విషయే ఏవ వక్తవ్యం. దిగ్వాచకానాం సమాసః ద్విగుః న. సో సంఖ్యాపూర్వో ద్విగుః ఇత్యనేన తద్ధితార్థే ఉత్తరపదే సమాహారే చ సంఖ్యావాచకానాం సమాసః ద్విగు సమాసః భవతి ఇత్యుక్త్వా తేషాం ఉదాహరణం దీయతే చేత్ అలం. యది సూత్రం పృచ్యతే తదా పౌర్వశాలః పూర్వశాలా ప్రియః ఇత్యపి వక్తవ్యం భవతి. సో వన్ ఆఫ్ ద ఇంపార్టెంట్ థింగ్స్ ఇన్ లెర్నింగ్ ఎ శాస్త్ర, నాట్ జస్ట్ వ్యాకరణ, ఎనీ శాస్త్ర, ఇస్ అండర్స్టాండింగ్ వాట్ ఇస్ బీయింగ్ ఆస్క్డ్. ఓకే, సో ఇట్ టు రైట్ ద సేమ్ ఆన్సర్ ఫర్ బోత్ దీస్ క్వశ్చన్స్ ఇస్ కామన్. ఇట్ ఇస్ వాట్ ఎనీ స్టూడెంట్ వుడ్ డూ, అ నార్మల్ స్టూడెంట్. But since you are studying the Shastra in a Shastriya way, you should understand what is being asked and write only for that. Okay? It's not a question of marks. Of course, you will get marks whatever you write. But for the purpose of understanding what is asked, and what exactly is it that you have to write. It is only when you think that way that there is a sharpness or clarity in your answer. Okay? Rather than just dumping whatever is there in the book into the paper. So you have to, you know, it has to go in, assimilate and come out clearly. So that is the only purpose for asking these. Not, you know, it's not like a blind copywriting, writing the same answer for everything. So vigraham pradarshya prakriyam likhata. Vigrahavakyam prakriya. Aparashalaha uttarashala priyaha shanmaturaha eka gavadhanaha panchangam. Very, very similar to the prakriya. You just have to take the slides and just change the first word, but still understand and write. And please write the prakriya. As long as you don't write, you will not get it. Yatha ganite tatha vyakarane api prakriya lekhane naiva siddhyati. Lekhanam vina jnatam iva bhati kintu na jnayate. You have to write, and then only you know how many steps you are missing in between. Abhyasa prashneshu dvigu samasasya tatpurusha samnyayam kim prayojanam. Dvigu is also called tatpurusha. Why? Is there any point? Why don't we just make it a separate samasa as dvigu samasa? Why is it under tatpurusha? Dvigu samasam upayujya pancha vakyani rachayata. So of course, at least one example each of all three types, and the rest two is your choice. So five sentences with dvigu samasa and the question. Okay. Please do write this, because this is a slightly complicated topic. So if you write, you will get more clarity on it. Any questions? So we can take these questions in the next week. We'll have the class tomorrow. We will go into Karmadharaya. But you will need some time to understand and write. So these questions you can send it by next week. We'll discuss them in the next week. Any questions for now? Panchajanyam, that is a Panchajanya is from a Rakshasa called Panchajana. Okay. So no idea why he was called Panchajana. Maybe there is some story which says he was derived from five people. I don't know. I very honestly don't know what is the root of the word Panchajana. Panchajanya is not directly a dvigu. Okay. So it is derived from Panchajana. Panchajanyasya idam Panchajanyam. So, if Panchajana is a dvigu samasa, you'll have to look into Purana on how his name was derived, on why he was called Panchajana. Panchajana is also a general name for Rakshasas also. It was the name of that particular Rakshasa also. I'll see if I can find it out. ఏనాక్షర సమాంనాయమధిగమ్య మహేశ్వరార్కస్తం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోష్ణమునిత్రయం నత్వా సరస్వతీం దేవీం శుద్ధాం గుణ్యాం కరోమ్యహం పాణినేయ ప్రవేశాయ లఘు సిద్ధాంతకౌముదీం.